सर्वेभ्यो नमः। अस्माकं प्रवर्तमानः विषयः अस्ति तृतीयाविभक्तिविषये गतवर्गे वयं किञ्चित् अभ्यासं कृतवन्तः, बहु किमपि अभ्यासं जातम् इति मन्ये गतवर्गे। अत्र सः इति तस्य परिचयः अपि तृतीया सहयोगे तृतीया इति तत्र परिचयः अपि जातः इति, पुटसङ्ख्या अस्ति 174। तत्र इदानीं तत्र 175 मध्ये तत्र अभ्यासः अस्ति सहयोगे तृतीया इति। तत्र कृष्णः राधया सह नृत्यति इति, तत्र सहयोगः अस्ति चेत् कर्तृपद तु सर्वदा प्रथमविभक्तो भवति। यः गच्छति अन्य पुरुषः वा महिला वा, तस्य सहयोगः यः करोति तस्य तृतीयविभक्त्यन्तं भवति, तस्य अनन्तरं सः इति भवति इति वाक्यस्य रूपम् एतत् जानीमः। अस्तु, तर्हि तत्र उमामीनाक्षी भगिनी तत्र 175 मध्ये अभ्यासः यः अस्ति तम् आरम्भं करोति वा?
अर्जुनः कर्णः तद्वा?
अर्जुनः कर्णः, सत्यं भगिनी, हा तदेव सः एव। रघुपतिमहोदय नमस्कारः।
नमस्कारः महोदय।
नमस्कारः।
कुरुक्षेत्रे युद्धारम्भे पाण्डवसेनापतिः दृष्टद्युम्नः कः केन सह युध्येत इति निर्दिशति। अधः तेषां नामानि दत्तानि सन्ति। तेषाम् उपयोगेन यथोदाहरणं सः इति शब्देन वाक्यानि रचयत। उदाहरणम् अर्जुनः कर्णः, अर्जुनः कर्णेन सह युध्येत।
तत्र युध्येत इति तत्र कर्णेन सह इति अस्ति, अतः अर्जुनः अपि कर्णः तयोः युद्धः भवति इति। तत्र युध्येत इति रूपं कीदृशं पदं युध्येत?
चिन्तयामि, एतत्तु आत्मनेपदी अस्ति।
आत्मनेपदी अस्ति, समीचीनं। हा, युध्येत इति युध्येत इति अस्ति, न दृष्टम् अस्माभिः किन्तु रूपमस्ति विधिलिङ्ग्। सः निर्दिशति खलु एतद् भवतु इति, अतः युध्येत इति सः।
पुरुषः
अर्जुनः तत्र युध्येत प्रथमपुरुषः,
प्रथमपुरुषः
कर्तृपदं किम् अत्र? अर्जुनः,
अर्जुनः,
अर्जुनः तु प्रथमपुरुषः।
कारणं विधिलिङ्ग् अहं न जानामि।
अस्माभिः न कृतम् एतावत्, अग्रिमे भागे अस्ति एतत्।
द्वितीये सोपाने,
द्वितीये भागे अस्ति।
भीमः दुर्योधनः, भीमः दुर्योधनेन सह अगेन युध्येत।
युध्येत केवलं तद्रूपम् अस्ति वा अथवा अन्यत् रूपमपि भवति वा अत्र?
अन्यत् इत्युक्ते
तत्र भीमः दुर्योधनेन सह युध्येत इति रूपम् अस्ति,
अन्यथा अहं दुर्योधनं
स्वीकृत्य। सत्यं सत्यं भगिनि, तदपि वदतु अभ्यासार्थं।
दुर्योधनः भीमेन सह युध्येत, परन्तु अस्माकं कृते किमस्ति, कुरुक्षेत्रे दृष्टद्युम्नः यः आदेशं ददाति तदा तु दुर्योधनस्य किं नाम न आगच्छति तत्र।
सत्यं सत्यं सत्यं, सः सः तु पाण्डवसेनापतिः अस्ति। सत्यं सत्यं भगिनि, समीचीनं।
किन्तु परस्परं युद्धं तु भविष्यति एव
अभ्यासार्थं। अग्रिमम्
अग्रिममपि करोमि। नकुलः द्रौणी किमस्ति? द्रौणी ओके,
प्रायशः द्रोणः इति प्रायशः अस्ति। नकुलः द्रोणी प्रायश द्रोणस्य पुत्रः प्रायश
परन्तु द्रोणस्य पुत्रः तु अश्वत्थामा अस्ति न
अहं चिन्तयामि द्रोणिः द्रोणाचार्य अस्ति
ओ द्रोणिः इति वा अस्तु
तस्य सेकेण्ड् नेम्
न जानामि
अहम् इसि वे औट् अहं स्वीकरोमि द्रोणिः द्रौणिः नकुलेन सह
अश्वत्थमेव महोदय
अश्वत्थमेव वा
आमां वृद्धिः भवति द्रोणस्य अपत्यं
सम्बन्ध इति स्वीकृत्य अस्तु धन्यवादः महोदय किन्तु भगिनी तत्र द्रौणी इति पदस्य तृतीयविभक्ति किं भवति द्रौणिना हरिणा समीचीनं भगिनि हरिणा समीचीनम् अतः वाक्यं किं भवति
द्रौणिना सह
समीचीनं भगिनि अस्तु अग्रे धन्यवादः पूर्णेन्दु महोदय अग्रे
उत्तमौजाः उपः उत्तमौजाः उपेण सह युद्धेरन् अत्र उत्तमौजाः प्रथम बहुवचन
समीचीनं महोदय समीचीनं तत्य सत्यमेव उत्तमौजाः इति प्रायशः तद् बहुवचने एव अस्ति इति मन्ये सत्यं महोदय अस्तु तत्र अत्र युध्येत इति स्थाने किं भवति अत्र अतः
युद्धेरन्
युद्धेरन्
अस्तु
महोदय एतत्तु वयं न कृतवन्तः तत्र विधिलिङ् किन्तु समीचीनमेव अस्तु अग्रे महोदय
तत्र सकारान्तः अस्ति अतः एकवचने एव उत्तमौजाः इति उत्तमौजस्य
मौजास्
मौजसि इति अतः उत्तमौजा वयं पूर्वमपि एकं पठितवन्तः सकार अस्ति चेत् पुल्लिङ्गे
धन्यवादः महोदय अस्तु 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 धन्यवादः महोदय सकारान्तः अस्तु अतः एकवचने एव अस्तु पूर्णेन्दु महोदय अतः पुनः एकवारं एकवचने एव सम्यक् अत्र युध्येत तत्र ओजस् इति प्रायश अस्ति खलु महोदय
उत्तमोजस्
अस्तु 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 अग्रे पूर्णेन्दु महोदय
सहदेवः शकुनिः सहदेवः शकुनिना सह युध्येत
समीचीनं महोदय अस्तु अग्रे अपि
एकितानः सलः एकितानः सलेन सह युध्येत
इति समीचीनं महोदय अस्तु अग्रे नरेश महोदय
शिखण्डि भीष्मः शिखण्डि भीष्मेन
तत्र नकारः वा नकारः वा महोदय नकारः किमर्थम्
शकारः
अस्ति अतः णत्वं भवति भीष्मेण सह युध्येत कवर्ग वा पवर्ग वा अस्ति चेत् बाधा नास्ति अग्रे महोदय
अभिमन्युः वृषसेन अभिमन्युः वृषसेनेन सह युध्येत
समीचीनम् अग्रे
सात्यकिः जयद्रथः सात्यकिः जयद्रथेन सह युध्येत
अन्तिमम्
भ्रष्टकेतुः शल्यः, भ्रष्टकेतुः शल्येन
विद्येत. समीचीनं महोदय, धन्यवादः. सूर्यकुमारी भगिनी नमस्कारः, शीतल भगिनी नमस्कारः.
नमस्कारः महोदय.
नमस्कारं भगिनी. अस्तु, रघुपति महोदय अग्रे करोति वा?
आम् महोदय. उदाहरणं दृष्ट्वा, उदाहरणं दृष्ट्वा वाक्यानि रचयत. उदाहरणं, सीता रामेण सह वनं गच्छति, धृतराष्ट्रः सह वार्तालापं करोति, सञ्जयः सञ्जयेन सह
वार्तालापं करोति. समीचीनं महोदय. अग्रे
अग्रे अहं सः युध्येय इति अर्जुनः पृष्टवान्. अस्तु, रामः सञ्जय
तत्र सोरि क्रमः सः एव क्रमः अस्ति महोदय तत्र, यत् रामः तदनन्तरं सञ्जयः तदनन्तरं के इति.
अहं कैः सह युध्येय इति अर्जुनः पृष्टवान्.
तावदेव महोदय, समीचीनम्. अग्रे
अग्रे भक्तः सह स्नेहेन व्यवहरति. भक्तः सर्वे इति बहुवचने अस्ति, अतः सर्वे सर्वे सर्वैः सर्वः सर्वः सर्वौ सर्वे सर्वैः सर्वैः सह स्नेहेन व्यवहरति.
सर्व इति अकारान्तपुल्लिङ्गपदं तत्र पेज् 199 मध्ये रूपं दत्तमस्ति महोदय. सर्वैः एव समीचीनं. समीचीनं महोदय. अस्तु, सूर्यकुमारी भगिनी अग्रे.
कर्णः
कुन्ति इति अस्ति पदं, तत्र एव दत्तमस्ति. अतः न कुन्ती इति न कर्णः इति अस्ति, कुन्ती इति पदं तत्र, तस्य तृतीयविभक्तिरूपं किम् अस्ति? नदी इति पदस्य तृतीयविभक्ति. अतः कुन्ती स्त्रीलिङ्गपदं वा दीर्घ इकारान्त वा?
कर्णः कुन्त्या सह सम्भाषणं कृतवान्.
अस्तु, समीचीनं भगिनि. अग्रे
मम मनसि युद्धं.
समीचीनं भगिनि. अग्रे
सः मित्रेण मित्रेण सह
मित्रेण मित्रेण नकारम नकारः मित्रेण
प्रजापतिः यज्ञेन सह प्रजाः असृजत्
असृजत् इति. समीचीनं भगिनि. अस्तु, अग्रे शीतल भगिनि.
आं महोदय. अहं
तत्र तत्र पूर्वस्मिन् पुटे 173 मध्ये रूपाणि दत्तानि सन्ति खलु भगिनि.
अहं
तत्र एषः अस्ति चेत् एतेन एताभ्याम् न एतैः तु बहुवचनम् अस्ति, एतौ इति वचनं किम्?
द्वितीय
द्विवचनं द्विवचनं
एताभ्यां सह गीतं गास्यामि.
गास्यामि. अग्रे
माता भगिन्या सह मन्दिरं गमिष्यति. नायकः
तत्र कविः, कविः पदस्य तृतीयविभक्तिरूपं किम् अस्ति?
कविना
सारथिः अस्ति चेत्
सारथिना सह युद्धभूमिं प्रविशति.
इति अस्ति भगिनि, तावदेव समीचीनम्. अस्तु, अग्रे विना इति अपि रूपम् अस्ति, एतत् कृत्वा तत्र अग्रे गच्छामः. अस्तु, तत्र अग्रे उमा मीनाक्षी भगिनी आरम्भं करोति वा अग्रिमपुटे? विना इति
ओके विना योगे तृतीया अश्यत उच्चैः पठत च ओके अत्र कर्णेन सह कृष्णेन सह पाण्डवसैन्यम् अस्ति ओ ग्रेट् कर्णेन विना
कृष्णेन विना कृष्णेन विना
कृष्णेन विना कौरवसैन्यम् अस्ति
अतः तत्र कः विषयः इदानीं सः योगे अपि तृतीया यत्र सः योगः नास्ति विनियोगे विना योगे अपि तृतीया एव इति विषयः तावदेव
सूर्येण विना प्रकाशः न भवति देन् घट्या विना समयस्य ज्ञानं न भवति
इदानीं तत्र दूरवाण्या विना इति स्थापनीयमस्ति
दूरवाणी अथवा कम्प्यूटर् विना
सङ्गणकेन
विना न
सङ्गणकेन विना
अस्माकं वर्गः न भवति
समीचीनं भगिनि अग्रे
अग्रे रामः भरतशत्रुघ्नाभ्यां विना वनं गतवान् दशरथः रामेण विना न जीवितवान् अहं मित्रेण विना विपणिं गच्छामि ओके द्वे वाट् इस् दट् वेदैः विना भारतस्य प्रसिद्धिः नास्ति
वेदाः
वेदैः अत्र बहुवचनमस्ति ओके सैनिकैः विना देशरक्षणं न भवति
अतः रूपं सः इति यादृशवाक्यानि वयं रचितुं शक्नुमः तादृशवाक्यानि तृतीयविभक्त्यन्तरूपेण तादृशवाक्यानि वयं विना इति स्थाने अपि रचितुं शक्नुमः इति इति अत्र विषयः अस्तु धन्यवादः भगिनि अत्र पूर्णेन्दुमहोदय आरम्भं करोति वा अभ्यासः
पुस्तके दत्तानां दत्तानां साहाय्येन रिक्तस्थानानि पूरयत पुस्तक वाक्यानि सन्ति अनन्तरं कोष्टकमध्ये एकैक पदम् अस्ति तस्य तृतीयविभक्ति रूपं कृत्वा रिक्तस्थानं पूरण करणीयम् इति अत्र दत्तमस्ति
समीचीनं महोदय
उदाहरणं बालः दुग्धेन विना भोजनं न करोति वृद्धः विना न चलति कोष्ठकमध्ये अस्ति दण्डः दण्डः अकारान्तपदमस्ति तस्य तृतीयविभक्ति एकवचने दण्डेन इति रूपं भवति वृद्धः दण्डेन विना न चलति अग्रिमं देशः विना न शोभते देशभक्तः देशः देशभक्तेन विना न शोभते अत्र बहुवचनरूपं करणे
प्रायशः समीचीनमस्ति महोदय तदपि सत्यं सत्यं
देशभक्तैः
देशभक्तैः विना न
शोभते
समीचीनं महोदय समीचीनं अस्तु अग्रे नरेश महोदय
मया विना कुत्रापि न गच्छति
अहम् इति पदस्य तृतीया अस्ति मया इति समीचीनं महोदय तत्र मया अपि तत्र किमस्ति मया आवाभ्याम् अस्माभिः अपि त्वम् अस्ति चेत् तत्र किं भवति त्वया युवाभ्यां
युष्माभिः
युष्माभिः इति. हा समीचीनं महोदय. हा अस्तु अग्रे.
श्रद्धा श्रद्धया विना ज्ञानं न लभते.
हा श्रद्धया विना ज्ञानं न लभते समीचीनं. हा रघुपति महोदय अग्रे.
अस्तु सङ्गः सङ्गेन विना कार्यं कुरु. त्वं त्वं विना सङ्गेन कार्यं कुरु. अग्रिमं विना मुक्तिः न भवति. विना ज्ञानं मुक्तिः न भवति. ज्ञानेन विना मुक्तिः न भवति.
ज्ञानेन विना मुक्तिः इति तत्र विना इति प्रायशः तत्र तृतीया इति भवति.
द्वितीया तृतीया
पञ्चमे अतः ज्ञानं विना अपि सत्यमेव किन्तु अत्र तृतीया इति वदामः. अस्तु धन्यवादः महोदय. अग्रे सूर्यकुमारी भगिनी पठति वा.
सप्तम कर्णः दिव्यकवच
कवचमेन अथवा कवचेन किं
कवचं प्रातिपदिकम् इस् कवचं
तद् कीदृशपदम् अस्ति तद्
नपुंसकलिङ्गपदम्
अन्त कीदृश अकारान्त वा इकारान्त वा मकारान्त वा किं
कवचम्
अकारान्त अस्तु वनं शब्दवत् वा वनं शब्दवत् वा वनं शब्दवत् वा
वनेन
अतः अत्र किं
अयुध्यत
अन्तिम अग्रे
अभिमन्युः भीत्या
हा भीतिः इति भीत्या इति किमर्थं लिङ्गं किं भीतिः इति किन्तु लिङ्गं किं तत्र
भीतिः अहं चिन्तयामि स्त्रीलिङ्गं
भीतिः इति प्रायशः स्त्रीलिङ्गपदमस्ति. भीत्या इति समीचीनमेव अस्ति.
अभिमन्युः
भीतया तत्र मतिः शब्दवत् तत्र मतिः शब्दस्य किम् अस्ति मत्या इति रूपम् अस्ति इति अत्र चक्रव्यूहं
भिन्नवान्
अस्तु शीतल भगिनी अन्तिमम्
आं महोदय अश्वत्थाम मणिना विना वनं गतवान्.
हा तत्र मणिः इति पुल्लिङ्गे अस्ति समीचीनं भगिनि. मणिना विना वनं गतवान् इति समीचीनं. हा अस्तु अतः तृतीया इति तस्य प्रचुर अभ्यासः अस्माभिः कृतः. इदानीं तत्र कथा इति एकं कथां लिङ्क् प्रेषितवान् अहं तद् ईमेल् द्वारा तद् पठामः. बहु समीचीना कथा समीचीनम् अस्ति इति मन्ये किन्तु पश्यामः किं चिन्तनं भवति इति. तदनन्तरं तुमुन् रूपम् इति आरब्धुं शक्नुमः. अस्तु तर्हि तत्र कथा अस्ति तत्र किं श्रमेण अर्जितं श्रेष्ठम् इति
कुत्र अस्ति महोदय.
तत्र ईमेल् मध्ये प्रथम पङ्क्तौ एव आङ्ग्लभाषायां वी मे रीड् द स्टोरी इफ् टैम् पर्मिट्स् इति अस्ति महोदय. द स्टोरि इति लिङ्क् अस्ति महोदय तत्र तत्र सम्भाषणसन्देशस्य जालपुटं भवति तत्र. सर्वे प्राप्तवन्तः वा. अस्तु अस्तु तर्हि तत्र शीतल भगिनी आरम्भं करोति वा.
आं महोदय.
हा
एकनिमेषम्
न न तस्य अग्रिमपुटम् अग्रिमपुटं श्रमेण श्रमेण अर्जितं श्रेष्ठम् इति
कश्चन अश्वमः तस्य मुख्यः साधुमहाराजः सर्वदा वदति स्म परिश्रमेण यत् सम्पाद्येत तदेव सेवनीयम् तस्य वितरणमपि चिन्तनीयं केवलादो केवलागो भवति केवलादि इति वेदवाक्यं स्मर्तव्यमिति विरामसमये सः कागदेन पुटकान् निर्माति स्म तस्य विक्रयणात् यत् धनं प्राप्येत् तस्य कश्चन भागः स्वनिमित्तम् उपयुज्यते स्म तेन आश्रमजनाः अपि एवमेव नियमं पालयन्ति स्म
हा इति समीचीनं भगिनि हा अस्तु अग्रे पूर्णेन्दुमहोदय
एकदा कश्चन धनिकः आगत्य साधुमहाराजम् अपृच्छत् महोदय मया दानं कर्तुम् इष्यते तस्मै देयम् इति यस्य जीवने धनस्य आवश्यकता स्यात् तस्मै इति अवदत् साधुमहाराजः धनिकः कस्मैचित् वृद्धाय भिक्षुकाय एकं सुवर्णनाणकम् अयच्छत् भिक्षुकः तत् कृतज्ञतापूर्वकं
स्व्यकरोत्
अत्र महोदय सकार अस्ति अनन्तरं वकार अस्ति अनन्तरं यकार अस्ति
वर्णत्रयमस्ति यक अकरोत् इति यण् सन्धि स्व्यकरोत्
स्व्यकरोत् अस्तु महोदय अनन्तरदिने धनिकः मार्गे गमनसमये सः भिक्षुकः अन्यं भिक्षुकं यत् वदन् आसीत् तत् अशृणोत् स्वर्णनाणकस्वीकर्ता अन्यत् अवदत् यः कश्चन उदारः धनिकः एकं सुवर्णनाणकम् अयच्छत् मया महत आनन्देन पूरिभोजनं कृतम् आकण्ठं मदिरा पिता च रात्रौ तादृशी निद्रा प्राप्ता यत्र इह प्रपञ्चबोधः एव न आसीत् इति
हा धन्यवादः महोदय हा अस्तु अग्रे नरेश महोदय
श्रवणात् धनिकस्य महान् खेदः मया दत्तस्य धनस्य सदुपयोगः न जातः इति सः साधुमहाराजं दृष्ट्वा स्वस्य अनुभवम् अश्रावयत् तदा साधुमहाराजः स्वसम्पादनस्य शेषभूतम् एकं नाणकं तस्मै दत्त्वा एतत् कस्मैचित् याचकाय देहि सः किं कुर्यात् इति परीक्षस्व इति अवदत् धनिकः कस्मैचित् याचकाय तत् नाणकं दत्तवान् सः तत् स्वीकृत्य गृहं प्रविश्य कञ्चित् पक्षिणं गृहीत्वा बहिः आगत्य तं पक्षिणं विमुक्तवान् पक्षी सन्तोषेण उद्दीय गतः
धन्यवादः महोदय
तदा
अग्रे सूर्यकुमारी भगिनी पठति वा?
आं महोदय. तदा धनिकः तं पृष्टवान्, किमर्थम् एवं कृतं भवता इति. तदा सः याचकः अवदत्, मम कुटुम्बस्य बुभुक्षायाः निवारणाय अयं पक्षी गृहीतः आसीत् मया, किन्तु अद्य भवता यत् नाणकं दत्तं ततः अस्माकं सर्वेषां बुभुक्षा निवारिता भविष्यति, अतः अहम् एवं पक्षिणम् अहम् एतं पक्षिणं बन्धविमुक्तं कृतवान् इति. तदा धनिकः अवगतवान् यत् परिश्रमेण सम्पादितस्य परिश्रमं विना प्राप्तस्य च धनस्य कः भेदः इति. तस्मात् दिनात् सोऽपि शरीरपरिश्रमम् आरब्धवान्.
हा इति. धन्यवादः भगिनि. हा अस्तु. हा तत्र अस्यां कथायां तृतीयविभक्तिरूपं रूपाणि दृश्यन्ते खलु? तत्र परिश्रमेण इति अस्ति, अपि तत्र किं किं बहुत्र अस्ति इति मन्ये तत्र तेन इति. अस्तु, पश्यामः. तत्र रघुपतिमहोदय आरम्भं करोति वा तत्र पङ्क्तिशः किञ्चित्?
एकनिमिषं महोदय. कश्चन बालकः, एकः बालकः आसीत्.
न आश्रमः महोदय, आश्रमः.
अस्तु अस्तु, क्षम्यतां क्षम्यतां किञ्चित्.
ओ, अग्रिमे पुटे न महोदय, तस्य अग्रिमे पुटे तत्र.
अस्तु अस्तु, कश्चन आश्रमः. अस्तु,
तत्र
एकः आश्रमः आसीत्. तस्य मुख्यः साधु महाराज सर्वदा वदति स्म. अस्तु, तत्र तस्य आश्रमस्य प्रमुखः साधुः आसीत. सः सदा वदति स्म परिश्रमेण, परिश्रमं कृत्वा एव यत् वयं सम्पादनं कुर्मः तदेव सेवनीयम् इति. विना परिश्रमेण किमपि यत् आगच्छति,
यत्
प्राप्नुमः तस्य सेवनं न करणीयम् इति. तस्य वितरणम् अपि च न केवलं सम्पादनीयं, तत् तस्य वितरणमपि, वितरणस्य विषये अपि चिन्तनीयम् इति.
केवलं वयं सम्पादितवन्तः अथवा वयं प्राप्नुवन्तः इति कृत्वा केवलम् एतद् अस्माकं कृते इति न चिन्तयित्वा अन्यैः अपि तस्य भागं दद्मः इति चिन्तनं भवेत् इति. वितरणम् इत्युक्ते धानमपि, तस्य धानम् अपि.
केवलाघो भवति केवलादिति वेदवाक्यं स्मर्तव्यम् इति.
एतद् अहम् अन्वेषणं कृतवान्, अहं वदामि तत्र. एतत् ऋग्वेद अस्ति, 10.117.6 इति वाक्यमस्ति तत्र. तत्र एकनिमिषः अहं वदामि, तत्र 10.117.6 तत्र आन्लैन् मध्ये प्राप्नुमः. तत्र ऋग्वेद बुक् 10 हिम्न 117 तत्र तस्य अस्ति. तत्र नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादि इति. तत्र यः आल् गिल्ट् इस् हि हू ईट्स् वित् नो पार्टेकर्. केवलं सः एव, अन्य तत्र विना दत्त्वा केवलं सः एव खादति चेत् तत्तु बहु खेदः अस्ति.
विदौट् अरियमा, विदौट् फ्रेण्ड्, one who eats alone should be looked upon as a sinner. Nāryamana.
Samichinam madhya.
Na
āryamanam puṣyati. So, samichinam madhya. Ataha tatra vitaranam api chintaniyam.
Karaniyam. Virama samaye sah
danam maharaya
vitaranam ityukte danam kevalam mama krute eva yat mama parshve asti tad kevalam mama upayogartham iti chinta mastu tasya bhagam anyehi api dadatu iti dhanasya vishe api chintanam bhavatu iti ataha parishramena sarvam केवलं यत् परिश्रमेण प्राप्नुमः सः एव सम्यक् अस्ति सेवनार्थस्य तदेव सेवनीयम् अपि केवलं मम कृते एव इति न चिन्तनं किन्तु तस्य भागस्य वितरणमपि तस्य दानमपि भवतु इति अग्रे महोदय
अग्रे सः विरामसमये कागदेन पुटकान् निर्माति स्म पुटकान् इत्युक्ते किमपि
पर्णेन महोदय तत्र स्थालिकां रचयामः खलु पर्णेन तत्र पर्णैः सह इदानीं स्थालिकां रचयामः किन्तु एकेन पर्णेन लघुस्थालिका भवति कोन् तत्र तादृश मन्दिरे प्रसादं लभ्यते खलु
तदेव
रघुपति महोदय उक्तवान् यः एक एकाकी खादति केवल सः एव खादति किन्तु सः किं अन्यैः किमपि न दत्त्वा सः एव पूर्णं खादति विना सखी मित्रेण विना खादति सः तस्य सः किं वस्तुतः पापं करोति इति तादृशार्थे अस्ति खलु महोदय तत्र आङ्ग्लभाषायां तदेव अर्थः आसीत्
तदेव
अत्र अतः तत्र सः पापं करोति तत्र अन्यैः सह भोजनं करणीयम् एकाकी न करणीयम् इति
इदानीं तस्य विक्रयणात् पुटकानां विक्रयणं कृत्वा धनं प्राप्नोति स्म तस्य कश्चन भागः स्वनिमित्तम् अपि च
तत्र विक्रयणात् इति विभक्तिका तत्र
विक्रयणात् पञ्चमी विभक्ति
पञ्चमी
विक्रयणात् इति
तस्य धनं प्राप्य
कश्चन भागः स्वनिमित्तं
तस्य धनस्य कश्चन भागः
कश्चन भागः स्वनिमित्तम् उपयुज्यते स्म उपयुज्यते स्म तेन
अपि तत्र पूर्णं सः स्वनिमित्तम् इति उपयोगं न कृतवान् किन्तु तस्य भागः एव कश्चन
कश्चन भागः एव
अन्यत् अन्याय दत्तवान्
आश्रमजनाः अपि एतमेव नियमं पालयन्ति स्म आश्रमवासिनः अपि एवमेव कुर्वन्ति स्म
तत्र नियमम् इति अस्ति तत्र नियमम् इति पालयन्ति इति पदस्य कर्मपदं लिङ्गं किं तत्र नियमम् इति
नियमः इति नियमम् इति कर्म इति भवति
कर्मपदः नियमः इति पुल्लिङ्गे
कथं जानीमः
कथं जानीमः नियमः इति पुल्लिङ्गः पदम् अस्ति इति अत्र
अत्र
एतं नियमम् इति एतमस्ति सः पदस्य विभक्तिरूपम्
अन्यथा एतत् भवेत्
सत्यं सत्यं सः इति क्षम्यताम् एषः नियमः इति अतः एतं नियमम् इति. हा समीचीनं महोदय. हा अस्तु, धन्यवादः. अग्रे उमा मीनाक्षी भगिनी वदति वा?
ओके. एकदा कश्चन धनिकः आगत्य साधु महाराजम् अपृच्छत्. अग्रे गच्छामि.
अत्र किमपि अस्ति वा? गच्छन्ति खलु.
मया दानं कर्तुम् इष्यते, कस्मै देयम्? ओके. मया तत्र
तृतीया अस्ति. इदानीमेव वयं दृष्टवन्तः खलु गीतासोपने अपि. हा मया इति
मया दानं कर्तुम्
मया अपि किमस्ति द्विवचने किमस्ति?
आवाभ्यां.
हा अपि बहुवचने?
अनन्तरम् अस्माभिः.
अस्माभिः हा इति समीचीनं. हा समीचीनं भगिनी. अत्र अर्थात् एतदेव वाक्यम् अन्यत् रूपम् अहं
दानं कर्तुम्
इच्छामि.
इष्यते रूपं किम्?
इष्यते तत्र एतत् कर्मणि प्रयोगः अस्ति.
भिन्नम् अस्ति.
हा हा सत्यम्. आत्मनिपदि रूपम् अग्रे पश्यामः.
पठ्यते.
हा मया पठ्यते इति तादृशार्थे. हा एतत् कर्मणि प्रयोगः अस्ति. कस्मै देयं? कस्मै दानं देयम् इति मया कस्मै दानं धेयम् इति. कस्मै
चतुर्थी न?
हा कस्मै चतुर्थी. कस्मै धेयं दानम् अस्ति खलु, अतः कस्मै इति.
यस्य जीवने धनस्य आवश्यकता स्यात् तस्मै
देयम्
अवदत् साधु महाराजः.
तत्र यस्य जीवने धनस्य आवश्यकता स्यात् तस्मै देयम्. यः सः रूपम् अस्ति वाक्यस्य. या सा यः सः तादृशवाक्यं. भागद्वयमस्ति खलु. भागे यस्य इति अस्ति, द्वितीयभागे सः इति अस्ति. किन्तु सः इति वस्तुतः सः इति नास्ति. सः इति पदस्य किं चतुर्थीरूपम् अस्ति. तस्मै धेयम् इति. हा अग्रे भगिनि
पठामि. धनिकः कस्मैचित् वृद्धाय भिक्षुकाय एकं सुवर्णनाणकम् अयच्छत्.
हा तत्र अयच्छत् यच्छति इति तस्य
लङ्लकाररूपम्
अयच्छत् इति. हा समीचीनम्. अपि धनिकः अयच्छत्.
धनिकः अयच्छत्. धनिकः
अयच्छत्
सुवर्णनाणकम्
अयच्छत्. तत्र एकम् इति
एकं
विशेषणम्. एकं
विशेषणं सुवर्णनाणकस्य.
हा इदानीं कस्मै अयच्छत्?
भिक्षुकाय वृद्धाय भिक्षुकाय. विशेषणं
विशेषणं. हा वृद्धाय भिक्षुकाय इति विशेषणं. तदनन्तरं कस्मैश्चित्? तदपि कस्मैश्चित्. चित् इति किं भवति? असर्टन् इति. तत्र कश्चन वृद्धः भिक्षुकः अस्ति. कस्मैश्चित् वृद्धाय भिक्षुकाय इति तस्य चतुर्थविभक्तिरूपम्. कश्चन अथवा कश्चित् वृद्धः भिक्षुकः तस्य चतुर्थीरूपम् अस्ति. कस्मैश्चित् तत्र कश्चित् कश्चित् तत्र कः इति अस्ति, तस्य चतुर्थीविभक्ति अस्ति कस्मै. तदनन्तरं छित् इति पुनः भवति. एतत् छित् चन इति तद् अग्रे भवति द्वितीयभागे गीतासोपने. किन्तु तत् कः कश्चित् वृद्धः भिक्षुकः इति पदस्य पदत्रयम् अस्ति, विशेषणम् अपि अस्ति तत्र. तस्य चतुर्थी विभक्तिः अस्ति कस्मैश्चित् वृद्धाय भिक्षुकाय धनिकः सुवर्णनाणकम् अयच्छत् इति. अग्रे भगिनि.
भिक्षुकः तत् कृतज्ञतापूर्वकं स्व्यकरोत्.
हा, तत्र कर्तृपदं किम् अस्ति?
भिक्षुकः.
हा, कर्मपदं?
कर्मपदं किं? तत्. हा,
तत् इत्युक्ते किं?
तत् इत्युक्ते नाणकं.
हा, नाणकं, सुवर्णनाणकम् इति तत् सुवर्णनाणकं. तत्र स्व्यकरोत्, स्व्यकरोत् अस्ति लट्लकारे स्वीकरोति, किन्तु तस्य लङ्लकररूपं किम् अस्ति?
एतदेव, स्व्यकरोत्.
स्व्यकरोत्. तत्र किं कुर्मः? लङ्लकारम् उपसर्ग अस्ति चेत् स्वीकरोति इति, उपसर्गतुल्यः अस्ति खलु स्वी इति,
उपसर्ग प्रथमं निष्कासयामः.
हा, समीचीनम्. अतः करोति इति
लङ्लकारं कुर्मः, तदनन्तरं योजयामः.
हा, अतः करोति इति उपसर्गरहितक्रियापदं, तस्य लङ्लकाररूपं किम् अस्ति?
अकरोत्.
अकरोत् इति. इदानीं पुनः उपसर्ग योजयामः, स्वी योगः
अकरोत्.
स्वी अकरोत् इति यकारः
किमपि भवति,
यण् सन्धि भवति, सन्धिः भवति,
अन्तिमरूपं स्व्यकरोत्.
स्व्यकरोत् इति भवति. स्व्यकरोत् इति भवति लङ्लकररूपं स्वीकरोति इति क्रियापदस्य. समीचीनं भगिनि. हा, अग्रे.
अनन्तरदिने धनिकः मार्गे गमनसमये सः भिक्षुकः अन्यं भिक्षुकं यत् वदन् आसीत् तत् अशृणोत्.
हा, अत्र क्रियापदम् अशृणोत् अस्ति चेत् कर्तृपदं किम्?
एकनिमिषं.
हा, धनिकः.
धनिकः एव.
धनिकः
अशृणोत्.
धनिकः अशृणोत्. समीचीनं भगिनि. हा, धनिकः अशृणोत् अनन्तरदिने.
परन्तु अत्र प्रथमा विभक्ति सः भिक्षुकः अपि अस्ति.
अस्तु अस्ति. अतः अतः तत्र तत् यत्
द्वितीयक्रियापदम् अपि वक्तव्यं.
सः अशृणोत् आसीत् तत् अशृणोत् वदन् आसीत्.
धनिकः तत् अशृणोत्.
हा, किम् अशृणोत्? यत् वदन् आसीत्. अतः तत् इति कर्मपदं भवति. तत् इत्युक्ते किम् इति, तस्य पूर्वं किं किम् अस्ति तत् सर्वं तत्
पूर्णवाक्यं वदति.
हा, तत्र अनन्तरदिने इत्युक्ते किम्?
अन्यं भिक्षुकं यत् वदन् आसीत्.
हा,
यत् तत् अत्र आगच्छति न? ओके.
यत् तत् यत् वदन् आसीत् तत् अशृणोत्. हा, तत्र मार्गे गमनसमये सः भिक्षुकः अन्यं भिक्षुकं, सः भिक्षुकः, तत्र सः इत्युक्ते कः? धनिकः. धनिकः वा न?
भिक्षुकः.
हा, यः पूर्वदिने तत्र सुवर्णनाणकं
स्व्यकरोत्. धनिकः दत्तवान्, भिक्षुकः प्राप्तवान्.
हा, सः एव अत्र अन्यं भिक्षुकं वदन् आसीत् यत् सः उक्तवान्, यत् वदन् आसीत् तत् अशृणोत्. अशृणोत् अत्र अनन्तरदिने इत्युक्ते
अग्रिमदिने.
अग्रिमे दिने एव. हा, समीचीनं. श्वः.
श्वः.
श्वः अद्य. श्वः अग्रिमे दिने. तत्र पश्यतु किम् अवदत् इति पश्यति चेत् तत्र ह्यः इति अस्ति. अतः तत्र अग्रिमे दिने इति अवगन्तुं शक्नुमः. अनन्तरदिने इत्युक्ते अग्रिमे दिने इति. तदपि वदतु भगिनि.
सुवर्णनाणकस्वीकर्ता अन्यम् अवदत् ह्यः कश्चन उदारः धनिकः एकं सुवर्णनाणकम् अयच्छत्. ओके. मया महता आनन्देन
तत्र भगिनि तत्र अस्तु तत्र सुवर्णनाणक स्वीकर्ता इति तत्र कीदृशपदमस्ति
कर्ता अस्ति
अतः
तस्य सर्वं अन्यत् सर्वं तु विशेषणरूपम् अस्ति
अतः कीदृशपदम् सुवर्णनाणकं यः स्वीकृतवान् सः सुवर्णनाणकस्वीकर्तृ अथवा कर्ता इति अन्यम् अवदत् अन्यम् अस्ति अन्यं तत् अन्यम् इत्युक्ते अन्यं सुवर्णनाणकस्वीकर्ताम् स्वीकर्तारम् इति न अन्यम् इत्युक्ते अन्यं भिक्षुकम् अवदत् अस्तु तत्र ह्यः इति अस्ति ह्यः इति अतः कश्चन कश्चन तत्र कश्चित् आसीत् अत्र कश्चन कश्चित् कश्चन समानं सर्टन् इति उदारः धनिकः उदारः इत्युक्ते हा यः दानं करोति उदारमनस्क धनिकः विशालमनसः मनस् अस्ति हा उदारता अस्ति इति तादृश हा उदारमनस् उदारधनिकः एकं सुवर्णनाणकम् अयच्छत् कस्मै अयच्छत् किन्तु सः एव वदति अतः अस्मिन् वाक्ये किं भवति तत्र ह्यः कश्चन उदारः धनिकः एकं सुवर्णनाणकं भिक्षुकः एव वदति
अतः
अहं पदस्य
चतुर्थी विभक्ति
तत् किमस्ति कोऽपि वदति वा मह्यं रोचते इति अत्र मह्यम् अतः ह्यः कश्चन उदारः धनिकः एकं सुवर्णनाणकं मह्यम्
अयच्छत्
इति अग्रे
तदनन्तरं मया महता आनन्देन भूरिभोजनं कृतम् बहु सम्यक्
भूरि इत्युक्ते
भूरि पूर्णतया अथवा बहु
बहु किमपि बृहत् भोजनम् इति कृतं भूरिभोजनं मया कृतं तत्रापि पश्यतु तृतीया मया कृतम् अपि
तदनन्तरं आकण्ठं मदिरा पीता च
मया मदिरा इत्युक्ते पानं पानीयं
किं पानीयं
विशेषपानीयं विशेषं पानीयम्
आकण्ठं विशेषपानीयम्
आकण्ठम् इत्युक्ते आकण्ठम् इत्युक्ते किञ्चिदेव न किञ्चिदेव कण्ठं पूर्णं यावत् अहं न पातुं न शक्नोमि तावत् अहं पीतवान् तस्य उपरि एकमपि बिन्दु
जलं न पीतवान्
मदिरां पीतवान् सः आकण्ठं मदिरा पीता च तत्र पीता इति अस्ति रूपं किं
श्रीलिङ्गं मदिरा
स्त्रीलिङ्गं मदिरा स्त्रीलिङ्गं पीता इति विशेषणं भवति मया मदिरा पीता मया पठितं पुस्तकं मया दृष्टं वृक्षं मया दृष्टः वृक्षः इति तादृश तत्र मया मदिरा पीता अग्रे
रात्रौ तादृशी निद्रा प्राप्ता यत्र इह प्रपञ्चबोधः एव न आसीत् इह प्रपञ्चबोधः न जानामि
इह भजगोविन्दं मध्ये अपि आगच्छति इति मन्ये इह लोके इति किमपि भवति खलु कोऽपि स्मरति वा
न
अन्तु इह
गोविन्दमेव न स्मरामि
इह इत्युक्ते अत्र अत्र अस्मिन् भूमौ अस्मिन् भुवने अस्यां भूमौ अस्मिन् भुवने प्रपञ्चे तस्य बोधः इह प्रपञ्चबोधः प्रपञ्चः अस्ति इति एव मम मनसि तस्य किमपि अस्ति न वा इति अपि ज्ञानं नास्ति तादृशनिद्रा प्राप्ता हा तत्र कस्यापि तत्र स्मरणमेव नास्ति ज्ञानमेव नास्ति तादृशी निद्रा रात्रौ रात्रौ इति विभक्ति का तत्र
सप्तमी
सप्तमी रात्रिः रात्रौ तादृशी निद्रा प्राप्ता तत्र निद्रा इति अस्ति चेत् तादृशी किं भवति
स्त्रीलिङ्गं
स्त्रीलिङ्गं विशेषणं प्राप्तापि विशेषणं निद्रा इति पदस्य कीदृशी निद्रा प्राप्ता यत्र इह प्रपञ्चबोधः इह प्रपञ्चस्य ज्ञानम् एव नासीत् तादृशी निद्रा मया प्राप्ता तादृशनिद्राम् अहं कृतवान् निद्रितवान् यत्र इह प्रपञ्च
इत्युक्ते बहु सम्यक् सः निद्रां कृतवान्
हा हा इति सत्यं सत्यं हा समीचीनम् अस्तु सम्यक् निद्रां कृतवान् समीचीनं हा किन्तु मदिरा इति जानाति खलु भगिनि
मन्दोदरी
न मदिरा मदिरा
मदिरा
मदिरा इति मण्डोदरी न
मदिरा
विशेषपानीयम् इति उक्तवान् हा विशेषपानीयम् इति तत्र अन्यपदं कोऽपि वक्तुमिच्छति वा मदिरा इति स्थाने
सारमपि
हा सोमरसम् इति समीचीनम् अस्तु हा
सोमरसं
हा तादृश अतः एव निद्रा तादृशी आसीत् हा अस्तु अग्रे पूर्णेन्दुमहोदय अग्रे
एतस्य श्रवणात् धनिकस्य महान् खेदः मया दत्तस्य धनस्य सदुपयोगः न जातः इति
तत्र
धनिकः
वदतु महोदय वदतु
उपरि यत् दत्तमस्ति तत् श्रुत्वा सः धनिकस्य तत् धनिकस्य महान् खेदः जातः
सः
चिन्तितवान् मया दत्तस्य धनस्य सदुपयोगः न जातः इत्युक्ते तेन यत् धनं दत्तवान्
तेन यत् धनं दत्तं
तस्य सदुपयोगः न जातः अत्र मया इति तृतीया विभक्ति
सत्यं सत्यं मया यत् यद्धनं दत्तं तस्य धनस्य सदुपयोगः न जातः इति सः खिन्नः अस्ति
सः साधु महाराजं दृष्ट्वा स्वस्य अनुभवम् अश्रावयत् सः पुनः एकवारं साधु महाराजस्य समीपे गतवान् तं दृष्ट्वा स्व अनुभवं गतदिने यत् अनुभवं सः प्राप्तवान् तत् अनुभवं साधु महाराजस्य समीपे अश्रावयत्
इति सर्वं वदति सः विवृणोति यत् यत् अभवत् तत् विवृणोति तदा
साधु महाराजः स्वसम्पादनस्य शेषभूतम् एकं नाणकं तस्मै दत्त्वा एतत् कस्मैचित् याचकाय देहि सः किं कुर्यात् इति परिच्छस्व इति अवदत्. तत् धनिकस्य अनुभवं श्रुत्वा साधुमहाराजः स्वसम्पादनस्य अत्र तु षष्ठीविभक्ति अस्ति, परन्तु समस्तपदमपि अस्ति. तत् समस्तपदं स्वसम्पादनस्य.
तत्र पूर्वमपि वयं दृष्टवन्तः खलु, तत्र सः विरामसमये कागदेन पुटकान् निर्माति स्म. तस्य विक्रयणात् यत् धनं प्राप्येत तस्य कश्चन भागः स्वनिमित्तम् उपयुज्यते स्म तेन इति. अतः साधुमहाराजः यत् स्वनिमित्तं धनं यत् धनम् आसीत् स्वसम्पादन तत्र सः सर्वं स्वनिमित्तम् इति चिन्तितवान् वा? यत् सम्पादितवान्, यत् धनं सम्पादितवान् स्वनिमित्तम् इति चिन्तनम् आसीत् वा तस्य महाराज? न. अतः केवलम् एकभागस्य भागस्य एव स्वनिमित्तम् इति सः तस्य चिन्तनम् आसीत् खलु. अतः स्वसम्पादनस्य धनस्य शेषभूतं वितरणं कृत्वा यत् शेषः अस्ति, शेषभागम् अस्ति, शेषभूतम् इत्युक्ते सम्पादनस्य अनन्तरं वितरणं करोति, तदनन्तरं यद् शेषमस्ति तत् शेषभागः यदस्ति तस्मात् अथवा शेषभूतम् एकं नाणकम्
धनिकाय दत्त्वा एतत् कस्मैचित् याचकाय देहि उक्तवान्.
अतः तत्र एकं नाणकं सः धनिकाय ददाति. अपि वदति, किं वदति? एतत् कस्मैश्चित् याचकाय. पूर्वमपि दृष्टवन्तः खलु, कस्मैश्चित् वृद्धाय भिक्षुकाय. अत्रापि चतुर्थी याचकः कश्चित् याचकः, तस्य चतुर्थी कस्मैश्चित् याचकाय. देहि इति लकारः कीदृशलकारः?
देहि इति
मध्यम पुरुषः. अपि अग्रिमे वाक्ये परीक्षस्व, तदपि लोट्लकारः मध्यमपुरुषः. एकवचनं मध्यमपुरुषः. तत्र देहि इति प्रायशः तद् परस्मैपदीरूपम् अस्ति. अपि परीक्षस्व इति आत्मनेपदी धातुः अस्ति इति मन्ये. स्व इति अस्ति चेत् तत् आत्मनेपदी धातुः इति मन्ये. अतः तत्र
याचकः भिक्षुकः समानार्थशब्दः वा?
याचकः, हा, यः, हा, याचकः भिक्षुकः.
ओके, समानार्थः.
समानार्थकः.
ओके.
अत्र अथवा अत्र प्रायशः सन्दर्भः अस्ति यत्र अहमपि कुत्रापि गत्वा अस्तु मम किं मम पित्राय किमपि मम पुत्राय किमपि आवश्यकम् अथवा मम पुत्र्यै पुत्र्याय कृते किमपि आवश्यकमिति कृत्वा कुत्रापि गत्वा अहमपि याचनं करोमि, तस्मिन् सन्दर्भे अहं याचकः भवामि. किन्तु तत् भिक्षुकः इव एव अस्ति खलु,
सर्वदा करोति याचनां.
अतः तत्र समानार्थकम् इति वक्तुं शक्नुमः. अस्तु, पूर्णेन्दु महोदय, तत्र सः किं करोति तत्र कस्मैश्चित् हा याचकाय देहि अपि सः इत्युक्ते कः
सः इत्युक्ते यस्मै याचकै भवान्
ददाति
सः ददाति सः किं कुर्यात् इति परीक्षस्व
परीक्षस्व इति अवदत् समीचीनं महोदय अग्रे
अग्रे धनिकः कस्मैचित् याचकाय तत् नाणकं दत्तवान् सः धनिकः अग्रे गत्वा कस्मैचित् याचकाय तत् नाणकं ददाति सः तत् स्वीकृत्य गृहं प्रविश्य कश्चित् पक्षिणं गृहीत्वा बहिः आगत्य तं पक्षिणं विमुक्तवान् पक्षी सन्तोषेण उड्ड्य गतः सः धनिकः अग्रे गत्वा यत् तत् नाणकं कस्मैचित् याचकाय ददाति
सः न जानाति कः कं पश्यति इति सः न जानाति महाराज साधु महाराज अपि न जानाति कस्मै एषः धनिकः नाणकं ददाति इति किन्तु कोऽपि अत्र याचकः अस्ति मार्गे तस्मै धनिकः नाणकं दत्तवान् हा इदानीं सः याचकः किं कृतवान्
सः याचकः नाणकं स्वीकृत्य अनुक्षणं स्वगृहं गृह अभ्यन्तरं गच्छति तत्र एकं पक्षिं गृहीत्वा बहिः आगच्छति अनन्तरं पक्षिणं तत् पक्षिं मुक्तं करोति
पक्षिणं इति तत्र पक्षीणम् इति अस्ति तत्र पक्षिणम् इति पदस्य लिङ्गं किम् इति तत्र वाक्यं दृष्ट्वा वक्तुं शक्नुमः वा तत्र
तं पक्षिणं
हा तं पक्षिणम् इति अस्ति अतः कीदृशपदं लिङ्गं किं
पुल्लिङ्गपदं
पुल्लिङ्गपदं तम् इति अस्ति
तम् अस्ति अतः
तत् आसीत् चेत् नपुंसकलिङ्गपदं किन्तु तम् इति अस्ति अपि कश्चित् तत्र कञ्चित् कञ्चित् इति अस्ति अतः तत् कं चित् पक्षिणम् अतः तत्र कम् इति कः इति पदस्य द्वितीयविभक्तिरूपं कं पक्षिणम् इति अपि कर्मपदम् अति अस्ति इति कृत्वा द्वितीयविभक्तिरूपं कञ्चित् पक्षिणं कञ्चित् पक्षिणं गृहीत्वा बहिः आगत्य तं पक्षिणं विमुक्तवान् पक्षी सन्तोषेण इति तृतीया विभक्ति भावः उडीय गतः हा धन्यवादः महोदय हा धन्यवादः अस्तु नमस्कारः गीताञ्जलि भगिनि अस्तु
नमस्ते महोदय क्षम्यतां महोदय
चिन्ता मास्तु भगिनि जानाति वा कुत्र स्मः इति
कथायां
अर्जितं श्रेष्ठम् इति
किन्तु अत्र परिच्छेदे किम् इति न
तत्र तत्र पुटसङ्ख्या अस्ति 28 इति तत्र सम्भाषणसन्देशे
आम् महोदय
तत्र इदानीं वयं कुत्र स्मः इत्युक्ते तत्र तदा धनिकः तं पृष्टवान् इति तत्र स्मः अस्तु अग्रे सूर्यकुमारी भगिनी प्रयत्नं करोति वा किञ्चित् वदति वा
आम् तदा धनिकः तं दृष्टवान्
पृष्टवान् तं पृष्टवान्
तं दृष्टवान्
पृष्टवान्
पृष्टवान् धनिकः तं
तम् इत्युक्ते कं
भिक्षुकः
भिक्षुकं तं भिक्षुकं पृष्टवान्
किमर्थम् एवं कृतं भवता
हा तत्र भवता इति विभक्ति का
भवता सम्भोषण
न भवता तृतीया भवान् भवता
कृतं भवता
तत्र गीतासोपने वयं गतवर्गे दृष्टवन्तः खलु 173 मध्ये एतदेव वयं कृतवन्तः खलु भवती भवान् भवता भवद्भ्यां भवद्भिः भवद्भिः इति तत्र भवता किमर्थम्
एवं कृतं
भवता अथवा तत् अन्यत् अन्या रीत्या वदामश्चेत् किं भवति भवान् किमर्थम् एतत् करोति अथवा एतत् कृतवान् एवं कृतवान् किमर्थम् एवं कृतवान् भवान् इति अस्तु
सः याचकः अवदत् मम कुटुम्बस्य बुभुक्षायाः निवारणाय अयं पक्षी गृहीतः आसीत् मया
तत्र अयम् इति पूर्वभागं पश्यामः तत्र मम कुटुम्बस्य बुभुक्षायाः इति पदस्य विभक्ति का प्रथमविभक्तिरूपं किमस्ति अत्र
सप्तमी
न बुभुक्षायाः इति पदस्य प्रथमविभक्तिरूपं किम् अस्ति
बुभुक्षा
स्त्रीलिङ्ग आकारान्त स्त्रीलिङ्ग अस्तु लता इति स्वीकरोतु लता इति पदमस्ति
कुटुम्बस्य बुभुक्षायाः
षष्टि बुभुक्षा बुभुक्षायाः
निवारणाय
तस्य निवारणार्थं
निर्मूलम्
पक्षी अयम् इति एषः इति अर्थे पुल्लिङ्ग अयम् इति पुल्लिङ्गमस्ति एषः पक्षी
आसीत् मया
गृहीतः आसीत् मया इत्युक्ते अहं एतं पक्षीं गृहीतवान् पक्षीम् इति तत्र प्रायशः रूपं भिन्नं भवति किन्तु तत्र एतं गृहीतवान् अहं गृहीतवान् किमर्थं गृहीतवान् बुभुक्षायाः निवारणार्थम् अथवा निवारणाय कस्य बुभुक्षा मम कुटुम्बस्य बुभुक्षा
किन्तु अद्य भवता यत् नाणकं दत्तं ततः अस्माकं सर्वेषां बुभुक्षा निवारिता भविष्यति
किन्तु
अतः अहम् एवं पक्षिणं बन्धुविमुक्तं कृतवान् इति
अत्र किन्तु इति आरभ्य किन्तु अद्य तत्र किं किम् अस्ति किन्तु
अद्य भवता तृतीय एकवचनं
भवता
यत् नाणकं दत्तं
भवता नाणकं दत्तम् अस्ति खलु धनिकेन नाणकं दत्तमस्ति ततः इत्युक्ते नाणकं यदस्ति तस्मात् नाणकात्
ततः अस्माकं सर्वेषां बुभुक्षा निवारिता भविष्यति
तत्र अस्माकं सर्वेषां तत्र विभक्ति का तत्र
सर्वेषां तृतीयविभक्ति
षष्टिविभक्ति
अस्माकम्
षष्टिविभक्ति सर्वेषाम् इत्युक्ते कुटुम्बे के सन्ति सर्वेषाम् अतः अस्माकं सर्वेषां किं बुभुक्षा केवलं मम बुभुक्षा इति नास्ति किन्तु मम पूर्णकुटुम्बस्य बुभुक्षा बुभुक्षा निवारिता इत्युक्ते तस्य निवारणं भवति. निवारिता इति पदं बुभुक्षा पदं सम्बन्धः तयोः मध्ये कः सम्बन्धः? किन्तु तत्र अड्जेक्टिव् इति विशेषणं भवति. बुभुक्षा बुभुक्षा कीदृशी बुभुक्षा? निवारिता बुभुक्षा. निवारिता बुभुक्षा कस्य बुभुक्षा? अस्माकं सर्वेषां बुभुक्षा. सा बुभुक्षा निवारिता भविष्यति. अतः
अहम् एतं भक्षणं बन्धविमुक्तं कृतवान् इति.
हा इति. अतः एतस्य आवश्यकता नास्ति. अतः अहं तस्य विमोचनं कृतवान् इति सः वदति. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे शीतल भगिनी किञ्चित् वदति वा अन्तिमपरिच्छेदः?
आम् महोदय. तदा धनिकः अवगतवान् यत् परिश्रमेण सम्पादितस्य परिश्रमं विना प्राप्तस्य च धनस्य कः भेदः इति. तदा धनिकः अवगच्छति यत् परिश्रमेण सम्पादितस्य धनं लभ्यते
तद् भिन्नम् अस्ति. अपि परिश्रमेण विना अथवा परिश्रमं विना
प्राप्तस्य धनस्य कः भेदः
अवगच्छति. तत्र वयं दृष्टवन्तः खलु इदानीमेव, तत्र सहयोगे तृतीया, विना इति योगे अपि तृतीया. अत्र अतः तत्र परिश्रमेण सम्पादितस्य धनस्य अपि परिश्रमेण विना प्राप्तस्य धनस्य धनस्य भेदः अस्ति. तत्र समानं नास्ति. धनम् इति समानमस्ति, किन्तु कीदृशं धनम् इत्युक्ते एकमस्ति परिश्रमेण प्राप्तं धनम्, अन्यत् अस्ति परिश्रमेण विना प्राप्तं धनम्. तयोः कः भेदः इति धनिकः अवगच्छति अवगतवान्. तस्मात् अग्रे
तस्मात् दिनात् सः अपि शरीरपरिश्रमम् आरब्धवान्. तस्मात् दिनात् धनिकः अपि शरीरस्य परिश्रमं कृतवान्.
अतः तत् किं तस्मात् दिनात् आरभ्य वयं कृतवन्तः खलु पञ्चमी विभक्ति. तस्मात् दिनात् आरभ्य धनिकः परिश्रमं कृतवान्, शरीर अथवा देहपरिश्रमं कृतवान्. तत्र आरब्धवान् इति स्थाने तत्र दिनात् आरभ्य इति उपयुज्य अपि वक्तुं शक्नुमः. अस्तु, समीचीनम्. अस्तु, अन्य कोऽपि प्रश्नः अस्ति वा कथायाः विषये? तत्र तृतीयविभक्तेः अभ्यासः जातः वा? अन्यः प्रश्नः अस्ति वा अत्र कथायाः विषये? अस्तु अस्तु, तर्हि तत्र अस्मिन् तत्र बालमोदिनी इति या कथा वयं पठितवन्तः, तस्य पूर्वं या कथा अस्ति सापि समीचीनमेव अस्ति. तस्य पूर्वमपि सा कथा अपि समीचीनमेव अस्ति. न मे मध्ये, तदनन्तरं जून् तत्र जून् क्षम्यतां, तत्र प्रायशः तस्य पूर्वं किम् अस्ति तत्र मातापित्रोः सेवा एव श्रेष्ठा. सः अपि बहु समीचीनमेव अस्ति. अस्तु तर्हि, अस्तु, अतः तत्र किञ्चित् एव समयः अस्ति, किन्तु अग्रिमे अध्याये यः विषयः अस्ति तद् आरम्भं कर्तुं शक्नुमः इति मन्ये. अस्तु, तत्र अस्तु, गीतासोपनं पुनः गच्छामः. इदानीं तत्र तुमुन् इति अस्ति. गीताञ्जलि भगिनी पठितुम् इच्छति वा? पेज् 177. तत्र ओ, तत्र सम्भाषणमेव अस्ति. तत्र किं गीताञ्जलि भगिनी अपि शीतल भगिनी तत्र सम्भाषणं कुर्वन्ति वा? अस्तु.
न त्वं शोचितुम् अर्हसि तुमुन् प्रत्ययान्तानि चैः पठत जानीत च. वृद्धः आगच्छतु भगिनी.
लता, धन्यवादः महोदय. नूतनं गीतपुस्तकं क्रेतुम् इच्छामि. कतिभिः रूप्यकैः पुस्तकं लब्धुं शक्नोमि?
कियन्मूल्यस्य पुस्तकं स्वीकर्तुम् इच्छसि?
शतपर्यन्तं दातुं शक्नोमि महोदय.
तत्र बहुविधानि पुस्तकानि द्रष्टुं शक्नोषि.
तेष्वेव वर्णमयम् एकं चेतुम् इच्छामि.
जीवनं यशस्वी कर्तुं गीताध्ययनं कुरु.
हा, समीचीनं भगिनि, धन्यवादः. अस्तु, तत्र पश्यामः. तत्र तत्र किं किम् अस्ति? तुमुन् रूपम् इति, हा, तुमुन् इति मूलविषयः अत्र. तत्र आगच्छतु भगिनी, आगच्छतु इति लोट्लकारः. तत्र पुरुषः कः? प्रथमपुरुषः वा मध्यमपुरुषः वा? प्रथमपुरुषः एकवचनम् आगच्छतु इति. तत्र मध्यमपुरुषे लोट्लकाररूपं किं भवति? आगच्छ इति भवति. समीचीनं, धन्यवादः महोदय. नूतनं गीतापुस्तकं क्रेतुम् इच्छामि. क्रेतुम् इच्छामि. कतिभिः रूप्यकैः पुस्तकं लब्धुं शक्नोमि? कतिभिः रूप्यकैः, तृतीयविभक्त्यन्तं, कतिभिः रूप्यकैः पुस्तकं लब्धुं शक्नोमि? तत्र कर्तृपदं किम् अस्ति? अहं. शक्नोमि इति अस्ति खलु, शक्नोमि क्रियापदम् अस्ति. सर्वदा तत्र किं वाक्यस्य ग्रहणसमये सर्वदा क्रियापदं द्रष्टव्यं. क्रियापदम् उपयुज्य कर्तृपदं तस्य अभिज्ञानं करणीयं. कर्तृपदं किम् इति ज्ञातव्यम्. अत्र शक्नोमि अहम्, अहं कतिभिः रूप्यकैः पुस्तकं लब्धुं शक्नोमि. अहं पुस्तकं क्रेतुम् इच्छामि. कतिभिः रूप्यकैः पुस्तकं लब्धुं शक्नोमि? कियत् मूल्यस्य, तद् भवति कियन् मूल्यस्य पुस्तकं स्वीकर्तुम् इच्छसि? तत्र कीदृशपुस्तकं, कियत् मूल्यं, तस्य मूल्यं कियत् भवेत् इति. कीदृशपुस्तकं स्वीकर्तुम् इच्छसि भगिनी इति वृद्धः पृच्छति. अतः लता वदति, लता भगिनी वदति, शतपर्यन्तं, शतरूप्यकाणि पर्यन्तं दातुं शक्नोमि महोदय. तस्य अधिकमस्ति चेत् न दातुं शक्नोमि, किन्तु शतपर्यन्तं दातुं शक्नोमि. वृद्धः वदति, तत्र बहुविधानि पुस्तकानि द्रष्टुं शक्नोषि. अतः तादृशानि पुस्तकानि लभ्यन्ते, बहुविधानि पुस्तकानि सन्ति. तत्र द्रष्टुं शक्नोषि, द्रष्टुं धातुं, स्वीकर्तुं, क्रेतुं, लब्धुम् इति सर्वं तुमुन् रूपं. तेष्वेव, तेष्वेव इति रूपं कीदृशं? तेषु एव, तेष्वेव
सप्तमी,
हा सप्तमी, तेषु एव बहुविधानि पुस्तकानि सन्ति इति वृद्धः अवदत् खलु. तेषु तेषु बहुविधेषु पुस्तकेषु एव वर्णमयम् एकं चेतुम् इच्छामि. जीवनं यशस्वी कर्तुं गीताध्ययनं कुरु. तत्रापि कर्तुम् इति तुमुन् रूपम्. अत्र तुमुन् इति तत्र कार्यद्वयं भवति. वयं दृष्टवन्तः खलु तत्र अहं पठित्वा कार्यं करोमि इति. तत्र त्वान्तरूपं दृष्टवन्तः, तदनन्तरं ल्यबन्तरूपमपि दृष्टवन्तः. इदानीं तत्र प्रथमकार्यं तत्र किं कर्तुम् इति प्रश्नः भवति. तत्र एतत् कर्तुम्, अतः तत्र तुमुन् रूपम् इति नाम. अत्र तुमुन् प्रत्ययान्तरूपाणि तत्र दत्तानि सन्ति. तत् प्रायशः एकवारम् एतत् पठामः, अग्रिमे वर्गे तस्य अभ्यासं कुर्मः. किन्तु एकवारं पश्यामः, समीचीनमेव भवति. तत्र
चेतुम् इत्युक्ते किं?
चिनोति इति. चिनोति, चिनोति इति पदस्य
अत्र च तुम् एवं नास्ति.
न न न न न न न चिनोति इति अर्थः. सेलेक्ट् इति चेतुं चिनोति इति पदस्य तुमुन् रूपम्. अस्तु, तत्र नरेश महोदय तत्र एकवारं तत्र किं दक्षिणस्तम्भः पठति वा? लिखति लेखितुम् इति तत्सर्वं
लिखति लिखति लेखितुं खादति क्रीडति क्रीडितुं चलति चलितुं धावति धावितुं जानाति यातुं हसति हसितुं ददाति दातुं तिष्ठति स्थातुं पश्यति द्रष्टुं गायति गातुं शृणोति श्रोतुं नयति नेतुम् आनयति आनेतुम्
समिच्छति. हा वदतु वदतु. हा वदतु महोदय. हा प्रविशति
प्रविशति प्रवेष्टुं विस्मरति विस्मर्तुम् उत्तिष्ठति उत्थातुं गच्छति गन्तुम् उन्नयति उन्नेतुम् अनुकरोति अनुकर्तुम् आकर्षति आकृष्टम् आकृष्टं वदति वदितुं युध्यते योद्धुं चिन्तयति चिन्तयितुं भक्षयति भक्षयितुं दहति दग्धुं नृत्यति नर्तितुं दण्डयति दण्डयितुं.
हा इति समीचीनं. तत्र कोऽपि वदति वा तत्र कुत्र कुत्र ईकारः भवति? तत्र लिखति लेखितुं खादति खादितुं क्रीडति क्रीडितुं चलति चलितुम् इति अस्ति. तत्र कीदृश धातु अस्ति तत्र? न न न तत्र ईकारः आगच्छति चेत् हा सेट् इति धातोः नाम अस्ति. ईकारः ईडागमः इति वदामः, ईकारः आगच्छति. तत्र लिखित्वा खादित्वा क्रीडित्वा इति तत्र ईकारः अस्ति खलु. पठित्वा तत्र ईकारः आगच्छति इति कृत्वा तत्र यदि अष्टाध्यायी मध्ये गच्छामः तत्र धातोः अन्वेषणं कुर्मः. तत्र पश्यामः अस्तु परस्मै धातुः अस्ति अनिट् अस्ति चेत् अस्तु ईकारः न भवति तुमुन् अथवा त्वान्तरूपे. सेट् अस्ति चेत् ईकारः भवति इति. अतः तत्र तादृशज्ञानं लभ्यते अष्टाध्यायी डाट् काम् धातुः दृष्ट्वा, सेट् वा अनिट् वा इति दृष्ट्वा. अस्तु समीचीनम्. अग्रिमे वर्गे अस्य विषयस्य अभ्यासः भवति. तत्र तुमुन् रूपम् इति किं कर्तुम् इति. अस्तु, तत्र त्वान्तरूपम् अस्ति, अपि एतद् तुमुन् रूपम् अस्ति, भेदः तु अस्ति, किन्तु कीदृशरूपं भवति तस्य, एतत् सर्वम् अग्रिमवर्गे पश्यामः. अस्तु, तर्हि अन्यप्रश्नः अस्ति वा
महोदय? वर्णमयं इत्युक्ते
वर्णमयं, तत्र कलर्फुल् इति.
ओ,
वर्णमयं, वर्ण वर्णं भवतु, केवलम् एकं वर्णम् इति न, वर्णमयम् इति. हा, कलर्फुल् इत्यर्थे. तेषु एव वर्णमयम् एकं पुस्तकं चेतुम् इच्छामि इति. हा, सत्यं सत्यं भगिनि. हा, एकमेव पुस्तकम् आवश्यकं, किन्तु तत् केवलं रक्तवर्णः इति न, रक्तवर्णमपि भवेत्, नीलवर्णमपि भवेत्, वर्णमयं भवेत्.
धन्यवादः.
अस्तु, अस्तु, तर्हि विरमाम, अग्रिमवर्गे मिलामः. सर्वेभ्यो नमः, धन्यवादः, नमस्कारः.
धन्यवादः महोदय.